मुखं करोति वाचालं पङ्गुं दण्डयते गिरिं यत्कृपास्तमहं वन्दे परमानन्दमाधवम्।
Thank you.